इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य पूर्वाह्ने एकादशवादने स्वीये मन की बात इति कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं त्रयोदशाधिकैकशतं संस्करणं भविता। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालयानां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरं अनुक्षणम् अयं कार्यक्रमः क्षेत्रीय भाषास्वपि श्रोतुं शक्यते। क्षेत्रीय भाषासु अस्य पुनः प्रसारणं रात्रौ अष्टवादने भविता। प्रधानमन्त्री नरेन्द्रमोदी अद्य महाराष्ट्रस्य जलगांवनगरे राजस्थानस्य च जोधपुरं प्रति यास्यति। प्रातः श्रीमोदी लखपति दीदी सम्मेलने सहभागितां करिष्यति। असौ अत्रावसरे एकादशलक्षाधिकं लखपति दीदी इत्येताभ्यः प्रमाणपत्राणि वितरिष्यति। एताः साम्प्रतिके एव समये एनडीए प्रशासनस्य तृतीये कार्यकाले लखपतित्वेन समभाजिताः। सायं श्रीमोदी राजस्थानस्य जोधपुरं सम्प्राप्स्यति। तत्रासौ राजस्थानोच्च न्यायालयस्य 75वें समारोहस्य समापनसत्रे मुख्यातिथित्वेन भविष्यति। तत्र राजस्थानोच्च न्यायालयस्य संग्रहालयस्य उद्घाटनं विधास्यति। केन्द्रीय मन्त्रिमण्डलेन सर्वकारीय कर्मचारिणां कृते एकीकृत सेवा निवृत्ति वृत्ति योजनायाः अनुमोदनं कृतमस्ति, यस्मिन् आश्वासित निवृत्ति वृत्तेः व्यवस्था अस्ति। ह्यः नवदिल्ल्यां मन्त्रिमण्डलस्य उपवेशनानन्तरं वार्ताहरान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् योजनायाः प्रथमस्तम्भेन 25 वर्षाणां न्यूनतम अर्हक सेवायाः कृते सेवानिवृत्तेः पूर्वं 12 मासेषु प्राप्त सामान्य मूलवृत्तेः 50% निवृत्तिवृत्तिः सुनिश्चिता भवति। द्वितीयस्तम्भः सुनिश्चितं करोति यत् कर्मचारिणः मृत्योः अनन्तरं परिवारस्य कृते 60% निवृत्तिराशिं सुनिश्चितं करोति। वैष्णवमहोदयः अवदत् यत् अनया योजनया प्रायः 23 लक्षं यावत् केन्द्रसर्वकारस्य कर्मचारिणः लाभान्विताः भविष्यन्ति। वैष्णवमहोदयेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां मन्त्रिमण्डलेन उच्चप्रदर्शनयुक्तं जैवनिर्माणं पोषयितुम् अर्थव्यवस्था पर्यावरण वृत्त्यावसराणां च कृते वायो E3 बायोटेक्नोलॉजी इत्यस्याः नीतेः अपि स्वीकृतिः प्रदत्ता। श्रीवैष्णवः अवदत् यत् एषा नीतिः विषयगत क्षेत्रेषु अनुसन्धान उद्यमिता विकासानां कृते समर्थनं प्रदास्यति। मन्त्रिमण्डलेन 3 क्षत्रयोजनानां निरन्तरतायै अपि अनुमोदनं कृतम्। येषां विलीनीकरणं विज्ञानधारा इति एकीकृत केन्द्रीय क्षेत्रयोजनायाम् अभवत्, यत्र 79.5 लाख करोडरूप्यकाणां व्ययः भविष्यति। ब्राजीलदेशस्य विदेशमन्त्री मौरो वियेरा इत्येषः अद्य चतुर्दिवसीय भारतयात्रायाः कृते नवदिल्ल्याम् आगमिष्यति। विदेशमन्त्री एस जयशंकरः वियेरावर्यः च मंगलवासरे भारत ब्राजील संयुक्तायोगसभायाः नवमसंस्करणस्य सह अध्यक्षतां करिष्यतः। विदेशमन्त्रालयेन उक्तं यत् अवधेयं वर्तते यत् अस्मिन् वर्षे ब्राजीलदेशः G20 अध्यक्षपदं धारयति। उभौ मन्त्रिणौ चर्चां करिष्यतः यत् ट्रोइका इति रूपेण गतवर्षे भारतस्य अध्यक्षतायां प्राप्तान् G20 संघर्ष्य प्रमुख परिणामान् कथम् अग्रे सारयितुं शक्यते इति वार्ताः।